शंकराय नमः। संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयं यत्स्वप्नजागरसुषुप्तमवैति नित्यं तत्रम निष्कलमहं न च भूतसङ्गः। भजामि मनसो वचसामगम्यं वाचो विभाति निखिल यदनुग्रहेण यन्नेति नेति वचनैर्निगमावोचुः तं देवदेवमजमच्युतमाहुरग्रयम्। नमामि तपसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यं यस्मिन्निदं जगदशेषमशेषमूर्तो रज्वाम्भुजङ्गम इव प्रतिभासितं वै। लोकत्रयमिदं पुण्यं लोकत्रय विभूषणं प्रातःकाले पठेत्यस्तु स गच्छेत् परमं पदं स गच्छेत् परमं पदं स गच्छेत् परमं पदम्।